प्रवशुक्राज भानवे भरध्वं हव्यं मदिञ्चाग्नजे सुबोदम् यो दैव्यानि मानुषा जनांश्यन्तर्विश्वानि विद्मनाजिगाति सगृत्सो अग्न्यस्तरुणश्चिदस्तु यतोजपिष्ठो अजनिष्टमातुः संयोमना युमतेषु चिदन्भोरिचिदन्नासमिदत्ति सद्यः अस्य देवस्य संसद्यने केजम् वर्ता स श्वेतम् च गृभ्रे निजोग्रभम् पौरुषे देववाच दुरोकभग्निराजवेषु शोच अजम् कविरकविषु प्रचेतावर्तेष्वग्निरमृतो निधाजि समानो अत्र जुहुरः सह स्मः सदा त्वे सुमनसः स्याम आजोजोनिम् देवकृतम् ससादक्रत्वा ह्या अग्निरमृताम् अतारीत तमोषधेश्च मनिनश्च गर्भम् भूमिश्च विश्वधाजसम् बिभर्ति ईशे ह्या अग्निरमृतस्य भोरेरीशे राजस्वीर्यस्य धातोः मात्वा वयम् सहसा वन्नवे रामात्समः परिषदाममादुमः परिषद्यम् ह्यरणस्य रेक्नो नित्यस्य राजः पतजस्याम न शेषो अग्ने अन्यजातमस्त्यजेतानस्य मापथो विदोक्षः न हि ग्रभाजारणः सुषेवोऽन्योदर्यो मनसा मन्तपा अथा चिदोकः पुनरित्स एत्यानो वाज्यभीषाणे तु नव्याः त्वमग्ने मनुष्यतो निपाहि त्वमनः सहसा वन्नपद्यात् सन्त्वा ध्वस्मन्वदभ्ये तु बाधः संरजस्पृहजाद्यः सहस्री एतानो अग्ने सौभगादिदेह्यभिक्रतुम् सुचेतसंवतेम विश्वास्तोद्रुभ्यो गृणते च सन्तु योजम्बादस्वस्तिभिः सदा नः